इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभायां विधानसभायां च तृतीयांशं यावत् महिला आरक्षणं प्रवर्तयितुं संविधानस्य एकत्रिंशोत्तरैकशत संशोधन विधेयकं 20-26 इति निम्नसदने पारितः नाभवत्। लोकसभायाम् उपस्थितानां कुलसदस्यानाम् 28.5% मतेषु 25.3% सदस्यानां तृतीयांश 2 मतानि न्यूनानि आसन्। विधेयकस्य मतदानावधौ 98.2% यावत् सांसदाः विधेयकस्य पक्षे, 30.2% यावत् सांसदाः विधेयकस्य विरुद्धं च मतदानं कृतवन्तः। लोकसभायाः अध्यक्षः ओम बिरलावर्यः मतदानस्य परिणामम् अघोषयत्। सः अग्रे अवदत् यत् अनेन विधानेन अग्रे गन्तुं न शक्यते, अस्मै अंगीकरणाय अपेक्षितं बहुमतं नागतम्। तत्पश्चात् संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् परिसीमन विधेयकं 20-26 तथा केन्द्रशासित क्षेत्र विधि संशोधन विधेयकं 20-26 इत्येतौ अन्यौ द्वौ विधेयकौ संविधानस्य एकत्रिंशोत्तरैकशत संशोधन विधेयकं 20-26 इत्यनेन सह परस्परौ सम्बद्धौ स्तः, अतः एतौ द्वौ विधेयकौ अंगीकरणाय न प्रस्तूयेते। नवीनतमस्य प्रकाशितस्य जनगणनायाः आधारेण परिसीमन प्रक्रियायाः माध्यमेन लोकसभायां विधानसभासु च महिलानां कृते तृतीयांशं यावत् आरक्षणं प्रवर्तयितुं संविधानस्य 31 संशोधन विधेयकं 20-26 अभिप्रेरितमासीत्। पश्चात् अद्य प्रातः 11 पुनः सभा आरम्भाय नियतमस्ति। ततः पूर्वं केन्द्रीय गृहमन्त्री अमितशाहः अवदत् यत् लोकसभायां राज्यानां केन्द्रशासित प्रदेशानां विधानसभासु च महिलानां आरक्षणं सुनिश्चेतुं सर्वकारः सर्वविध प्रयासं करिष्यति। सः लोकसभायां प्रस्तुतानां विधेयकानां विषये चर्चायाः उत्तरं प्रयच्छन्नासीत्। सः अवदत् यत् एतेषां विधेयकानाम् उद्देश्यम् अस्ति यत् 29-2000 वर्षे लोकसभायाः निर्वाचनं महिला आरक्षणम् आधृत्येव भवेदिति। परिसीमन प्रक्रियायाः विषये विपक्षस्य आशंकां निराकृत्य मन्त्रिणा उक्तं यत् परिसीमनाय संविधाने उपबन्धाः कल्पिताः सन्ति।
हमारे संविधान में समय समय पर परिसीमन का प्रावधान किया गया है। परिसीमन के प्रावधान से ही SC और ST जो जिसकी संख्या बढ़ती है उसकी सीटें भी बढ़ने का प्रावधान है। तो एक प्रकार से जो परिसीमन का विरोध कर रहे हैं वो SC और ST सीटों की बढ़ोतरी का विरोध कर रहा है।
लोकसभायां विपक्षस्य नेता राहुल गांधी चर्चायां भागम अगृह्णात्। सः अवदत् यत् नारी शक्ति वन्दन अधिनियमेति महिला आरक्षण विधेयकं नास्ति, महिला सशक्तिकरणेन च अस्य किमपि सम्बन्धः नास्ति। उपराष्ट्रपतिः CP राधाकृष्णनवर्यः श्वः आरभ्य द्विदिवसीय यात्रायै श्रीलंकादेशं प्रति गमिष्यति, यस्मिन् सः श्रीलंकादेशस्य राष्ट्रपतिना अनुरा कुमार दिसानायके, प्रधानमन्त्रिणा हरिणी अमरसूर्या इत्यनया च सह वार्तालापं करिष्यति। भारतस्य उपराष्ट्रपतेः श्रीलंकादेशस्य एषा प्रथमा द्वैपाक्षिक यात्रा भविष्यति। महिला क्रिकेट स्पर्धायां गतरात्रौ डर्बन नगरस्य किंग्समीड क्रीडांगणे 5 प्रथमायां 20-20 क्रीडायां दक्षिणाफ्रीकादलेन भारतं 6 पराजितम्। श्रृंखलायाः अग्रिमा क्रीडा श्वः रविवासरे तस्मिन्नेव स्थाने भविष्यति। IPL क्रिकेट क्रीडायां गतरात्रौ अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स दलेन कोलकाता नाइट राइडर्स दलं 5 पराजितम् इति वार्ताः।